अभियोग इमान् मही भुजो भवता तस्य कृतः कृतावधेः प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव अभियोग इति कृतावधेः परिभाषितकालस्य अवधिस्त्ववधाने स्यात् सीम्नि काले बिलेपि च इति विश्वः तस्य सुयोधनस्य कर्मणि षष्ठी भवता कृतः अवधितः इति शेषः अभियोगः आर्द्राभिभवः इति यावत् अभियोगस्तु शपथे स्यादार्द्रे च पराभवे इति विश्वः इमान् पूर्वोक्तान् महीभुजः राज्ञः हरिदश्वः उष्णरश्मिः कमलाकरानिव समुत्पतन् उद्यन्नेव प्रविघाटयिता भेत्स्यति घाटयतेः भौवादिकाल्लुट् चौरादिकस्य तु मितान् ह्रस्वः इति ह्रस्वत्वं स्यात् उपजापसहान् विलङ्घयन् सविधाता नृपतीन्मदोद्धतः सहते न जनोऽप्यथ क्रियाम् किमु लोकाधिकधामराजकम् उपजापेति मदोद्धतः सः दुर्योधनः नृपतीन् अन्यान् नृपान् विलङ्घयन् मदात् अवमानयन् सहन्ते इति सहाः पचाद्यच् उपजापस्य सहान् भेदयोग्यान् समौ भेदोपजापौ इत्यमरः विधाता विधास्यति दधातेर्लुट् अवमानितः जनः सुभेद्यः इति भावः न च ते सहिष्णवः इत्याह जनः प्राकृतोऽपि अधःक्रियाम् अपमानम् न सहते लोकाधिकधाम लोकोत्तरप्रतापम् राजकम् राजसमूहः गोत्रोक्षोष्ट्र इत्यादिना वै प्रत्ययः किमु न सहते इति किं वक्तव्यमित्यर्थः तथा सति कृष्णमेव राजमण्डलम् अस्मानेव अवलम्बिष्यते इति भावः असमापितकृत्यसम्पदाम् हतवेगम् विनयेन तावता प्रभवन्त्यभिमानशालिनाम् मदमुत्तम्भयितुम् विभूतयः असमापितेति असमापितकृत्यसम्पदाम् अकृतकृत्यानाम् अतः अभिमानशालिनाम् अहङ्कारिणाम् विभूतयः सम्पदः एव तावता स्वल्पेन विनयेन कार्यवशादारोपितेनेति शेषः हतवेगम् प्रतिबद्धवेगम् न तु स्वरूपतः हतम् मदम् उत्तम्भयितुम् वर्धयितुम् प्रभवन्ति सर्वथा दुर्जनसम्पदः विकारयन्तीति भावः अथ मदस्य अनर्थहेतुताम् युग्मेन आह मदमानसमुद्धतम् नृपम् न वियुङ्क्ते नियमेन मूढता अतिमूढ उदस्यते नयात् नयहीनादपरज्यते जनः अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुम् महानपि मदेति अपरागेति च मदमानाभ्याम् दर्पाहङ्काराभ्याम् समुद्धतम् नृपम् మూఢతా కార్యాపరిజ్ఞానం నియమేన అవశ్యం న వియుంక్తే న విముంచతి. అతిమూఢః నయాత్ నీతిమార్గాత్ ఉదస్యతే ఉక్షిప్యతే. కర్మకర్తరి లట్. నయహీనాత్ జనః అపరజ్యతే అపరక్తః భవతి. స్వరితయితః ఇత్యాదిన ఆత్మనే పదం. అపరాగః అప్రీతిః ద్వేష ఇతి యావత్ సమీరణ ఇవ. తేన ఈరితః చోదితః. అత ఏవ క్రమేణ శీర్ణా శీర్ణీభూతా ఆకులా చలా చ మూలసంతతిః ప్రకృత్యాది స్వజనవర్గః శిఫాసంఘాతశ్చ యస్య సః తథోక్తః. మూలం వశీకృతే స్వీయే శిఫాతారాంతికాదిషు ఇతి వైజయంతి. రిపుః మహానపి తరువత్ వృక్ష ఇవ సహిష్ణునా క్షమావత ఉన్మూలయితుం ఉద్ధర్తుం సుకరః సుసాధ్యః. సుకరోన్మూలనః ఇత్యర్థః. అత్ర మదాదేః పూర్వపూర్వస్య ఉత్తరోత్తరం ప్రతి కారణత్వాత్ కారణమాలా తరువదిత్యుపమాచేతి ద్వయోః సంసృష్టిః. అణురప్యుపహంతి విగ్రహః ప్రభుమంతః ప్రకృతి ప్రకోపజః. అఖిలం హి హినస్తి భూధరం తరుశాఖాంత నిఘర్షజోనలః. అణురితి అణుః అల్పః అపి అంతఃప్రకృతి ప్రకోపజః అంతరంగామాత్యాది అపరాగసముత్థః. ప్రకృతిః పంచభూతేషు స్వభావే మూలకారణే ఛందః కారణగుహ్యేషు జంత్వమాత్యాదికేష్వపి ఇతి వైజయంతి. విగ్రహః వైరం ప్రభుం ఉపహంతి నాశయతి. అత్ర దృష్టాంతమాహ. తరుశాఖాంతానాం నిఘర్షః ఘర్షణం తజ్జః అనలః అగ్నిః భూధరం గిరిం అఖిలం సాకల్యేన హినస్తి హి దహతీత్యర్థః. అత్ర ఉపమానోపమేయ సమానధర్మాణాం బింబప్రతిబింబతయా నిర్దేశేన దృష్టాంతాలంకారః. మతిమాన్ వినయ ప్రమాథినః సముపేక్షేత సమున్నతిం ద్విషః. సుజయః ఖలు తాదృగంతరే విపదంతాహ్య వినీత సంపదః. మతిమానితి మతిమాన్ ప్రాజ్ఞః వినయం ప్రమథ్నాతీతి వినయప్రమాథినః దుర్వినీతస్య. ద్విషః సమున్నతిం వృద్ధిం సముపేక్షేత ఉపేక్షాయాః ఫలమాహ. తాదృక్ అవినీతః అంతరే క్వచిద్రంధ్రే సుజయః సుఖేన జేతుం శక్యః ఖలు. హి యస్మాత్ అవినీత సంపదః విపదంతాః విపన్మర్యాదకాః అనర్థోదర్కాః ఇత్యర్థః. లఘువృత్తితయాభిధాం గతం బహిరంతశ్చ నృపస్య మండలం అభిభూయ హరత్యనంతరః శిథిలం కూలమివాపగారయః. లఘ్వితి లఘువృత్తితయా స్వస్య దుర్వృత్తిరూపతయా బహిః మిత్రాదిజనపదేషు అంతః అమాత్యాదిషు చ భిదాం భేదం గతం. షిద్భిదాదిభ్యోంగ్ ఇత్యంప్రత్యయః. నృపస్య మండలం రాష్ట్రం అనంతరః सन्निहितः जिगीषुः आपगारयः नदीवेगः शिथिलं अन्तर्भेदजर्जरं कूलमिव अभिभूय आक्रम्य हरति अनुशासतमित्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजं स्वयमर्थ इवाभिवांछितः तमभीयाय पराशरात्मजः अन्विति इति इत्थम् आकुलम् अरिनिकारस्मरणात् शुभितम् अर्जुनाग्रजम् भीमसेनम् नयवर्त्म नीतिमार्गम् अनाकुलम् असङ्कीर्णम् यथा तथा अनुशासतम् उपदिशन्तम् दक्षित्यादयः षट् इति अभ्यस्तात् शतुः नुमभावः तम् युधिष्ठिरम् पराशरात्मजः वेदव्यासः स्वयम् अभिवाञ्छितः अर्थः इव साक्षात् मनोरथ इवेति उत्प्रेक्षा अभीयाय प्राप्तः अथ युग्मेन आह मधुरैरवशानिलम्भयन् अपि तिर्यञ्चि शमं निरीक्षितैः परितः पटुबिभ्रदेन साम् दहनं धाम विलोकनक्षमम् सहसोपगतः स विस्मयम् तपसां सूतिरसूतिरापदाम् ददृशे जगती भुजा मुनिः स वपुष्मानिव पुण्यसञ्चयः मधुरैरिति सहसेति मधुरैः शान्तैः निरीक्षितैः अवलोकनैः नपुंसके भावे क्तः न विद्यते वशम् आयत्तत्वम् येषाम् तानि अवशानि प्रतिकूलानि वशमायत्ततायाञ्च इति विश्वः तिर्यञ्चि मृगपक्ष्यादीनि शमं शान्तिं लम्भयन् प्रापयन् लभेश्च इति नुमागमः गत्यर्थ इत्यादिना द्विकर्मकत्वं परितः पटु उज्ज्वलं एनसाम् दह्यते अनेनेति दहनं निवर्तकम् तथापि विलोकनक्षमं दर्शनीयं वह्न्यादिविलक्षणमिति भावः धाम तेजः बिभ्रत् पुनः सहसोपगतः अकस्मादागतः तपसां सूतिः प्रभवः आपदाम् असूतिः अप्रभवः निवर्तकः इति यावत् सः मुनिः व्यासः वपुष्मान् देहधारी पुण्यसञ्चयः पुण्यराशिरिवेति उत्प्रेक्षा जगतीभुजा राज्ञा सविस्मयम् ददृशे दृष्टः अथोच्चकैः आसनतः परर्घ्यात् उत्यंस धूतारुणवल्कलग्रह रराज कीर्णाकपिशांशुजालः शृङ्गात्सुमेरोरिव तिग्मरश्मिः अथेति अथ दर्शनानन्तरम् उच्चकैः उन्नतात् परार्घ्यात् श्रेष्ठात् अर्थात् यत् परावराधमोत्तमपूर्वाच्च इति यत्प्रत्ययः आसनतः सिंहासनात् उद्यन् उत्तिष्ठन् अत एव धूतानि कम्पितानि अरुणानि वल्कलाग्राणि यस्य सः तथोक्तः सः नृपः कीर्णम् विस्तृतम् आकपिशम् अंशुजालम् यस्य सः तथोक्तः सुमेरोः शृङ्गात् उद्यन् तिग्मरश्मिरिव प्रराज अवहितहृदयो विधाय सोर्हाम् ऋषिवदृषिप्रवरे गुरूपदिष्टाम् तदनुमतमलं चकार पश्चात् प्रशम इव श्रुतमासनं नरेन्द्रः अवहितेति सः नरेन्द्रः अवहितहृदयः अप्रमत्तचित्तस्सन् ऋषिप्रवरे मुनिश्रेष्ठे ऋषिवत् ऋष्यर्हाम् अर्हार्थे वतिप्रत्ययः गुरूपदिष्टाम् शास्त्रीयामित्यर्थः अर्हाम् पूजाम् गुरोश्च हलः इति अकारप्रत्ययः विधाय पश्चात् अनन्तरम् तदनुमतम् तेन अनुज्ञातम् आसनम् प्रशमः शान्तिः श्रुतम् शास्त्रश्रवणमिव अलञ्चकार उक्तञ्च प्रशमस्तस्य भवत्यलङ्क्रिया इति मुन्याज्ञया उपविष्टवानित्यर्थः व्यक्तोदितस्मितमयूखविभासितौष्ठः तिष्ठन्मुनेरभिमुखम् स विकीर्णधाम्नः तन्वन्तमिद्धमभितो गुरुमंशुजालम् लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः व्यक्तेति व्यक्तोदितैः स्फुटोद्गतैः स्मितमयूखैः विभासितौ ओष्ठौ यस्य सः तथोक्तः विकीर्णधाम्नः विस्तीर्णतेजसः मुनेः अभिमुखम् तिष्ठन् सः नृपः इद्धम् दीप्तम् अंशुजालम् तन्वन्तम् गुरुम् गीष्पतिम् गुरुर्गीष्पतिपित्रादौ इत्यमरः अभितः परितः इत्यादिना द्वितीया अभितः अभिमुखम् तिष्ठतः इति शेषः सकलस्य सम्पूर्णस्य शशाङ्का मूर्तिः यस्य तस्य इन्दोः लक्ष्मीम् उवाह वहति स्म अत्र उपमेयस्य राज्ञः उपमानेन्दुधर्मेण लक्ष्म्याः साक्षात् सम्बन्धासम्भवात् तत्सदृशीम् लक्ष्मीमिवेति प्रतिबिम्बकरणाक्षेपादसम्भवद्वस्तु सम्बन्धात् पदार्थवृत्तिः निदर्शनालङ्कारः तदुक्तम् प्रतिबिम्बस्य अकरणम् सम्भवता यत्र वस्तुयोगेन तत्साम्यमसम्भवता निदर्शना सा द्विधाभिमता इति श्रीमहामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितायाम् किरातार्जुनीयकाव्यव्याख्यायाम् घण्टापथसमाख्यायाम् द्वितीयः सर्गः समाप्तः।